विष्णु सजोष सेमा वर्धन्तु वां गिरह द्युम्नै वाजेभिरागतम् वाचश्च मे प्रसवश्च मे प्रियतिश्च मे प्रसितिश्च मे दीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे असुश्च मे चित्तं च महाधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोतं च मे दक्षश्च मे बलं च मा ओजश्च मे सहश्च मा आयुश्च मे जरा च मा आत्मा च मे तनुश्च मे शर्म च मे वर्म च मे अङ्गानि च मे अस्थानि च मे परुपुंषि च मे शरीराणि च मे च मा आधिपत्तं च मे मन्युश्च मे भामश्च मे अमश्च मे अम्बश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्याद्युया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपतं च मा ऋद्धिं च मऋद्धिश्च मे क्लिप्तं च मे क्लिप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे
यन्त्रा च मे
धर्ता च मे
क्षेमश्च मे
धृतिश्च मे
विश्वं च मे
महश्च मे
संविच्च मे
जात्रं च मे
सुश्च मे प्रसुश्च मे
सीरं च मे लयश्च मृतं च मे मृतं च मे अयक्ष्मं च मे अनामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे अनमित्रं च मे अभयं च मे
सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे
च मे पयश्च मे रसश्च मे धृतं च मे मधु च मे सक्तिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जेत्रं च मा औद्भिद्यं च मे
रयिश्च मे रायश्च मे
पुष्टं च मे पुष्टिश्च मे
विभु च मे प्रभु च मे
बहु च मे भूयश्च मे
पूर्णं च मे पूर्णतरं च मे
अक्षितिश्च मे कूयवाश्च मे
अन्नं च मे अक्षुश्च मे
व्रीहियश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे अनवश्च मे श्यामाकाश्च मे नीवाराश्च मे
अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे अयश्च मे
सीसं च मे त्रिपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मा आपश्च मे विरुदश्च मा औषधयश्च मे कृष्टपत्यं च मे अकृष्टपत्यं च मे
ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे
भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च मा हेमश्च मा इतिश्च मे गतिश्च मे अग्निश्च मा
इन्द्रश्च मे
सोमश्च
महेन्द्रश्च मे
सविता च महेन्द्रश्च
मे
सरस्वती च
महेन्द्रश्च मे
पूषा च
महेन्द्रश्च मे
बृहस्पतिश्च
महेन्द्रश्च मे
मित्रश्च महेन्द्रश्च मे वरुणश्च
महेन्द्रश्च
मे त्वष्टा च
महेन्द्रश्च मे
धाता च महेन्द्रश्च
मे
विष्णुश्च
महेन्द्रश्च
मे अश्विनौ च महेन्द्रश्च
मे
मरुदश्च
महेन्द्रश्च
मे विश्वे च मे देवा
इन्द्रश्च मे
पृथिवी च
महेन्द्रश्च
मे अन्तरिक्षं च
महेन्द्रश्च
मे द्यौश्च महेन्द्रश्च
मे
दिशश्च महेन्द्रश्च
मे मूल
सुमित्रश्च मे प्रजापतिश्च महेन्द्रश्च मे
अगुंशुश्च मे रश्मिश्च मे अदाभ्यश्च मे अधिपतिश्च मा उपागुंशुश्च मे अन्तर्यामश्च मा ऐन्द्रवायवश्च मे मैत्रावरुणश्च मा आश्विनश्च मे प्रतिपस्थानश्च मे शुक्रश्च मे मन्तिश्च मा आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मऋतुग्रहाश्च मे अतिग्राह्याश्च मा ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे महेन्द्रश्च मा आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हारियोजनश्च मे चेद्मश्च मे बर्हिश्च मे वेदिश्च मे तिष्णीयश्च मे शुचश्च मे तमसाश्च मे ग्रावाणश्च मे स्वरवश्च मा उपरवाश्च मे ऋषभनि च मे द्रोणकलशश्च मे भूतवृच्च मा आदवनीयश्च मा आग्नेयम् च मे अवेधानम् च मे गृहश्च मे सदश्च मे पुरोडाशाश्च मे भजताश्च मे विभुतश्च मे स्वाकाकारश्च मे अग्निश्च मे धर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मे अश्वमेधश्च मे पृथ्वी च मे अदितिश्च मे रितिश्च मे द्यौश्च मे शक्वरी रङ्गुलयो दशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मा ऋतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् वत्साच्च मे द्रविश्च मे द्रवी च मे दित्यवाच्च मे दित्यो हि च मे पञ्चविश्च मे पञ्चावी च मे त्रिवत्सच्च मे त्रिवत्साच्च मे तुर्यवाच्च मे तुर्यो हि च मे पष्टवाच्च मे पष्टौ हि च मा ऊक्षा च मे वशा च मा ऋषभश्च मे वेहश्च मे अनड्वाञ्च मे धेनुश्च मा आयुर्यज्ञेन कल्पतां
प्राणो यज्ञेन कल्पताम्
अपानो यज्ञेन कल्पताम्
ज्ञानो यज्ञेन कल्पताम्
चक्षुर्यज्ञेन कल्पताम्
पुश्रोतम् यज्ञेन कल्पताम्
मनो यज्ञेन कल्पताम्
वाग्यज्ञेन कल्पताम्
आत्मा यज्ञेन कल्पताम्
यज्ञो यज्ञेन कल्पताम्
एकाच मे तिष्ठश्च मे पञ्च च मे सप्त च मे नव च मा एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मा एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च मा एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे अष्टौ च मे द्वादश्च मे षोडश्च मे द्विगुंसतिश्च मे चतुर्विदुंसतिश्च मे अष्टाविदुंसतिश्च मे द्वात्रिगुंसच्च मे षत्रिगुंसच्च मे चत्वात्रिगुंसच्च मे चतुश्चत्वात्रिगुंसच्च मे अष्टाचत्वात्रिगुंसच्च मे वाचश्च प्रसवश्च विजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नीयश्चान्त्यश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च देवहुर्मनुर्यज्ञनि बृहस्पतिरुक्ता मदानि षदुंसि षद्विश्वे देवाः सुवाच पृथिवी मातर्मामाहिदुंसि मधुमनिष्ये मधुजनिष्ये
मधुवक्ष्यामि मधुवदिष्यामि मधुमतीं देवेभ्योवाच मुद्यासगुंशुश्रुश्रेया
मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरो नु मदन्तु
ओम्।